अग्निम् होतारम् मन्येदाश्वन्तम् वसुम् सूनुम् सहसो जातवेदसम् विप्रन्न जातवेदसम् यभूर्भयास्मद्भरो देवो देवाच्या कृपा हृदस्य बिभ्राष्टिमनो वष्टिशोचिषा जिह्वानस्य सर्पिषाः यतिष्ठन् त्वालिजमानाहुवे मज्येष्ठमङ्गीरसाम्य प्रमन्नाभिर्विप्रेभिः स्वप्रमन्नाभिः परिज्ञानमिभज्याम् होतारम् जर्षणीना सोऽतिष्के संवृषणम् यमिमापि सप्रावम् तु जूतजे विशाः स हि पुरोजसाभिरुक्मदादीद्यानो भवति द्रुहन्तरः परसम्मद्रोहन्तरः वेणुजिद्यस्य समृतौ श्रुमध्वने भयस्थिरम् विश्वः मानो यमते नाजते धन्वासराधायते गृहादीदस्मानो दुर्यथा विदेते चिष्टाभिहरणे वृद्धाश्यवसेऽग्नये दाश्यवसे प्रयः पुरो निगाहते तक्षध्वने वसोचिषाः स्थिराजिदन्नानिरीनात्योजसानि स्थिराणि चितोजसा तमस्य वृक्षमुपरासु धीमहिनक्तम् यः सुदर्शतरो दिवादरादप्रायुषे दिवादरात् आदस्याजुर्ग्रभणवद्वीरुषम् मनसो न मे भक्तमभक्तमभो व्यन्तो अजराः अग्नयो व्यन्तो अजराः स हि सद्धो न मारुतम् तु विश्वनिरप्रस्वतीशोर्वराः स्विष्टनिरात्तराः स्विष्टनीः आदद्धम् यान्यादधिर्यज्ञस्य केतुरर्हणाः अधस्मास्य हर्षतो हृषीवतो विश्वेन झुषन्त पन्थान् नरः शुभेन पन्थाः ीस्तासो अभिद्यवो नमस्यन्त उपवोचम् दभृगवो मथ्नन्तो दासा भृगवः अग्निरेशेवसूनाम् सुचर्यो धर्निरेणाभिधीर्वनिशेष्टमेधीरावनिशेष्टमे धीरः विश्वासाम् त्वा विशाम्पतिम् भवामहे सर्वासाम् समानन्दम्बतिम् भुजे सत्यगर्वाहसम् भुजे अदेशम् मानुषाणाम् पितुर्नयस्यासया अमीच विश्वे अमृता सावयो हव्या देवेष्वावयाः त्वमग्ने सहसा सहम् तव सृष्टिन्दमोजायसे देवतातये रजन्म देवतातये सुष्मिन्त मोहि देवताद्युम्निन्त बभुतक्रतोः अथस्मादे परिचरञ्जलसृष्टेवालो नादर रमो महे सहसा सहस्वदबुढर्बुधे वसुरेणाग्नजे स्वमो बभूत्वग्नजे प्रतियदीम् भविष्मान् विश्वा सुक्षासुजो भूमे अग्रे रेभो न च रतऋषूणाम् जोर्निर्होतऋषूणाम् स नो मे तिष्ठन् ददृशा नाभराग्ने देवेभिः स च नासुरेतुना महोराय सुचेतुना महेशविष्ठनस्कृति सञ्चक्षे भुजे अस्यै महिस्तोतृभ्यः मघवन् सुरेर्यम्वसी रुद्रो न समसा